कुञ्चिकास्तोत्रमुत्तमम् येन मन्त्रप्रभावेण चण्डी जापशुभो भवेत् न कवचम् नार्गदा स्तोत्रम् कीलकम् न रहस्यकम् न सूक्तम् नापि ध्यानम् च नन्यासो न च वार्चनम् कुञ्चिकापाठमात्रेण दुर्गापाठफलम् लभेत् अतिगुह्यतरम् देवि देवानामपि दुर्लभम् गोपनीयम् प्रयत्नेन स्वयोनिरिव पार्वती मारणम् मोहनम् वश्यम् सम्भनोचाटनादिकम् पाठमात्रेण संसिद्ध्येत् कुञ्चिका स्तोत्रमुत्तमम् ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वलहं संलं शंख स्वाहा नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनी नमकैतमहारिण्यै नमस्ते महिषार्दिनी नमस्ते शुम्भकङ्केश निशुम्भासुरघातिनी जागृतं हि महादेवि जपं सिद्धं पुरुष्वमे ऐङ्कारी सृष्टिरूपायै ऐङ्कारी प्रतिपालिका ऐङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते चामुण्डा चण्डघाती च ऐकारी वरदायिनी विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणी धां ह्रीं धूं धूर्जगे पत्नी वां ह्रीं भूं वागधीश्वरी क्रां क्लीं ह्रों कालिकादेवी श्यां श्रीं शूं मे शुभं गुरु हुं हुं हुङ्काररूपिण्यै जं 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 भरादिनी ध्यां ह्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ं कं शं तं तं पं यं शं ह्रीं दुं ऐं ह्रीं हं क्षं भिजाग्रं भिजाग्रं तोपय तोपय दीप्तं गुरु गुरु स्वाहा पां ह्रीं भूं पार्वती पूर्णाखां ह्रीं भूं खेचरी तथा सां ह्रीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्वमे इदं तु कुञ्चिका स्तोत्रम् मन्त्रजागर्तिहेतवे अभक्तेनैव दातव्यम् गोपितम् रक्ष पार्वती यस्तु कुञ्चिकया देवीनाम् सप्तशती पठेत् न तस्य जायते सिद्धिरण्ये रोदनम् यथा।